अथ तृतीयः पादः। मतुवसोरुसम्बुद्धौ छन्दसि अत्रानुनासिकः पूर्वस्य तु वा आतोटि नित्यम् अनुनासिकात्परोऽनुस्वारः समः सुटि पुमः खञ्यम् परे नश्चव्यप्रशान् उभयथर्क्षु दीर्घादटिसमानपादे नृन्पे स्वतवान्पायौ कानाम्रेडिते ढोढे लोपः रोरि खरवसानयोर्विसर्जनीयः रोस्सुपि भो भगो अघो अपूर्वस्य योषि व्योर्लघुप्रयत्नतरः शाकटायनस्य लोपशाकल्यस्य ओतोगार्ग्यस्य उञि च पदे हलिसर्वेषां मोनुस्वारः नश्चापदान्तस्य झलि मोराजिसमः क्वौ हेम परे वा न परे नः ङणोः कुक्टुक्षरे डस्सिधुट् नश्च शितुक् ङमो ह्रस्वादचिङमुन्नित्यम् मय उयो वो वा विसर्जनीयस्य सः शर्परे विसर्जनीयः वा शरि कुप्वोः कः पौचा सोपदादौ इणशः नमस्पुरसोर्गत्योः इदुदुपधस्य चाप्रत्ययस्य तिरसोऽन्यतरस्याम् द्विस्त्रिश्चतुरिति कृत्वोऽर्थे इसुसोऽसामर्थ्ये नित्यं समासेनुत्तरपदस्थस्य अतः कृकमिकं स कुम्भपात्रकुशा कर्णीष्वनव्ययस्य अधः शिरसि पदे कस्कादिषु च छन्दसि वा प्राम्रेडितयोः कः करत्करति कृधि कृतेष्वनदितेः पञ्चम्याः परावध्यर्थे पातौ च बहुलम् षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु इडाया वा अपदान्तस्य मूर्धन्यः सहेस्साडस्सः इण्कोः नुं विसर्जनीयशर्व्यवायेऽपि आदेशप्रत्यययोः शासिवसिघसीनाञ्च स्तौतिण्योरेव षण्यभ्यासात् सस्विदिस्वदिसहीनाञ्च प्राक्सितादड्व्यवायेऽपि स्थादिष्वभ्यासेन चाभ्यासस्य उपसर्गात् सुनोति सुवति स्यति स्तौति स्तोभति स्थासेन यसेध सि च सञ्जस्वञ्जाम् सदिरप्रतेः स्तन्भेः अवाच्यालम्बनाविदुर्ययोः वेश्च स्वनो भोजने परिनिविभ्यः सेवसितसयसिवुसः सुट्स्तु स्वञ्जाम् शिवादीनां वाड्व्यवायेऽपि अनुविपर्यभिनिभ्यस्यन्दतेरप्राणिषु वेस्कन्देरनिष्ठायां परेश्च परिस्कन्दः प्राच्यभरतेषु स्फुरति स्फुलत्योर्निर्निविभ्यः वेस्कब्नातेर्नित्यम् इणश्शीध्वं लुङ्लिटां धोङ्गात् विभाषेटः समासेऽङ्गुलेः सङ्गः भीरोस्थानम् अग्नेस्तुत्स्तोमसोमाः ज्योतिरायुषस्तोमः मातृपितृभ्यां स्वसा मातुः पितुर्भ्यामन्यतरस्याम् అభినిసస్తన శబ్ద సంజ్ఞాయాం ఉపసర్గ ప్రాదుర్భ్యామస్తిరియచ్ పరః సువినిర్దుర్భ్యః సుపి సూతి సమాః నినదీభ్యాం స్నాతే కౌశలే సూత్రం ప్రతిష్ణాతం కపిష్ఠలో గోత్రే ప్రష్ఠోగ్రగామిని వృక్షాసనయోర్విష్టరః ఛందో నామ్ని చ గవియుధిభ్యాం స్థిరః వీకూషమి పరిభ్య స్థలం అంబాంబగోభూమి సౌవ్యాప ద్విత్రికూషే కుశంక్వంగుమంజి పుంజి పరమే బర్హిర్దివ్యగ్నిభ్యస్థః సుషామాదిషు చ ఏతి సంజ్ఞాయామగాత్ నక్షత్రాద్వా హ్రస్వాత్తాదౌ తద్ధితే నిసస్తపతావనాసే వనే యుష్మత్తత్తతక్షుష్వంతః పాదం యజుష్యే కేషాం స్తుతస్తోమయోశ్చందసి పూర్వపదాత్ సుయః సనోతేరనః సహేః పృతనర్తాభ్యాం చ నరపరసృపి సృజి స్పృషి స్పృహి సవనాదీనాం సాత్పదాద్యోః సిచోయంగి సేధతేర్గతౌ ప్రతిస్తబ్ధనిస్తబ్ధౌ చ సోఢః స్తంభుసివుసహాం చంగి సునోతేస్య సనోః సదేః పరస్య లిటి నివ్యభిభ్యోడ్వ్యవాయే వా ఛందసి మతువసోరుణిచే దుదుపధస్య స్తౌతిణ్యోర్భీరోః హ్రస్వాత్తాదావేకో నవింశతిః ఇతి తృతీయః పాదః.